इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन ह्यः नवदिल्ल्यां सम्पन्नोपवेशनानन्तरं 13,000 कोटि रूप्यकाधिकाः 5 परियोजनाः अनुमोदिताः। एतासु 4 रेलमार्ग सम्बद्धाः, एका च राजमार्ग सम्बद्धा परियोजना अस्ति। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् केन्द्रीय मन्त्रिमण्डलेन पश्चिम बंगाल, ओडिसा, तमिलनाडु, आन्ध्रप्रदेश इत्येतेषु 4 राज्येषु रेलमार्गस्य 8 बहुमार्गीय परियोजनाः अनुमोदिताः। असौ उक्तवान् यत् आहत्य 50,4,09,000 कोटि रूप्यकाणां व्ययेन एताः परियोजनाः 30,2,000 तमवर्षात् 31,2,000 तमवर्षपर्यन्तं पूर्णाः करिष्यन्ते।
5 बहुत बड़े फैसले लिए हैं। पहले 4 प्रोजेक्ट्स हैं जो कि रेलवे के हैं और 5वां प्रोजेक्ट हाईवे का है। पहले 4 प्रोजेक्ट में जो हावड़ा से चेन्नई की रूट है, मेन लाइन है, इस मेन लाइन के क्वाड्रुपलिंग के डिसीजंस हैं और एक है कटक से पैरादीप रेलवे लाइन का क्वाड्रुपलिंग का 3rd और 4th लाइन। और 5वां प्रोजेक्ट है मुजफ्फरपुर से सीतामढ़ी होते हुए सोनबरसा तक ये 4-लेन हाईवे बनाने का। टोटल 13,041 करोड़ रूपीज के प्रोजेक्ट आज कैबिनेट ने अप्रूव किए।
श्री वैष्णव संसूचितवान् यत् मन्त्रिमण्डलेन बिहार राज्ये मुजफ्फरपुर सीतामढ़ी सोनबरसा खण्डस्य राष्ट्रिय राजमार्ग 22 इत्यस्य 4 मानकानुसारं उन्नयनमपि अनुमोदितम्। अस्य व्ययः आहत्य 90,5,3,000 कोटि रूप्यकाधिकः अस्ति। रक्षामन्त्री राजनाथ सिंहः अद्य नवदिल्ल्यां जापानस्य रक्षामन्त्रिणा शिन्ज़िरो कोइजुमी इत्यमुना सह द्विपाक्षिकोपवेशनं करिष्यति। अपेक्ष्यते यत् अस्मिन् उपवेशने हिन्द प्रशान्त क्षेत्रे रणनीतिक विश्वासः सहयोगश्च अधिकं सुदृढौ भविष्यतः तथा स्थिरतायाः सुरक्षायाश्च प्रवर्धनं भविष्यति। उभौ मन्त्रिणौ सामुद्रिक सुरक्षा क्षेत्रे गहन सहयोगस्य अथ मेक इन इण्डिया इत्यस्य च अन्तर्गतं रक्षोपकरणानां प्रौद्योगिक्याश्च क्षेत्रे अधिक निकट सहयोगस्य विषये विचाराणाम् आदान प्रदानं करिष्यतः। केन्द्रीय मन्त्री किरेन रिजिजुः एतत् कथनं निराकृतवान् यत् चीन देशः अरुणाचल प्रदेशे 60 किलोमीटर पर्यन्तम् अन्तः प्रविष्टः अस्ति। सामाजिक संचारपटले प्रकाशिते एकस्मिन् सन्देशे श्री रिजिजुः उक्तवान् यत् बांग्लादेशस्य छायाचित्राणि, दृश्यचित्राणि च चीनदेशस्य अरुणाचलप्रदेशे प्रवेशं मिथ्यारूपेण प्रदर्शयितुं प्रयोज्यन्ते। असौ उक्तवान् यत् एतादृशानि असत्यानि अभिकथनानि सीमां रक्षतां सैनिकानां मनोबलं न्यूनीकर्तुं शक्नुवन्ति तथा अनावश्यकं भ्रमं जनयितुं शक्नुवन्ति। मन्त्री उक्तवान् यत् भारत चीन सीमा सम्बद्ध विषय गंभीर अस्ति। सः जनान् आहूतवान् यत् एतादृशे संवेदनशील विषये मिथ्यानि उत वा अप्रमाणितानि कथनानि न कुर्वन्तु। दिल्ल्यां प्रचलितस्य विशेष गहन पुनरीक्षणस्य अन्तर्गतम् आवेदन पत्राणाम् उपस्थापनस्य अन्तिमतिथि अस्य मासस्य 24 दिनांकं यावत् वर्धिता। दिल्ल्याः मुख्य निर्वाचनाधिकारिणः अनुसारम् अधुना प्रारूप मतदातृसूची अस्य मासस्य 31 दिनांके प्रकाशिता भविष्यति। अभ्यर्थनानां आक्षेपानां च प्रस्तुतेः अन्तिमतिथिः आगामि मासस्य 30 दिनांकं भविष्यति। बांग्लादेशे अद्य राष्ट्रपति पदाय निर्वाचनं भविष्यति। अस्मिन् निर्वाचने सांसदाः शासनाधिरूढस्य बीएनपी दलस्य वरिष्ठ नेता मिर्जा फखरुल इस्लाम आलमगीर तथा 11 दलात्मकस्य विपक्ष संयुतेः प्रत्याशी कर्नल ओली अहमद इत्येतयोः मध्ये चयनं करिष्यन्ति। 35 वर्षाणाम् अनन्तरं प्रथमवारं राष्ट्रपति पदाय निर्वाचने मतदानं भविष्यति। मतदानं अद्य अपराह्णे 2 वादनादारभ्य सायं 5 वादनपर्यन्तं संसद भवने भविष्यति। इति वार्ताः।